षोड़श उत्थाय दैवासुर संपद विभाग योग श्री भगवान उवाच अभयं सत्य संशुद्धिर् ज्ञान योग व्यवस्थिति दान दमश्च यज्ञश्च श्रद्धाय स्तपार्जवम् अहिंसा सत्यमक्रोधस्त्याग शान्तिरपैशुनम् दयाभूतेश्वरूर्ध्वं मार्दवं श्रीह्रीरचापलं तेजक्षमा धृतिशौच मद्रुह नातिमानिता भवन्ति संपदं दैवीमभिजातस्य भारत दम्भोदर्पोऽभिमानश्च क्रोधः पारुष्यमेव च अज्ञानमिच्छाभिजातस्य पार्थसम्पदमासुरीम् दैवी संपद विमोक्षाय निबन्धायासुरीमता मासु च संपदं दैवीमभिजातोऽसि पाण्डव द्वौ भूत सर्गौ लोकेऽस्मिन् दैव आसुर एव च दैवोत विस्तरशः प्रोक्तं आसुरं पार्थ मे शृणु प्रवृत्तिञ्च निवृत्तिञ्च जनान विदुरासुरा न शौचं नापि चाचारो न सत्यं तेषु विद्यते असत्यम् अप्रतिष्ठान्ते जगदाहुरनीश्वरम् अपरस्परसम्भूतं किमन्नत् कामहेतुकम् एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः प्रवन्तु ग्रकर्माण क्षयाय जगत्तो हिता काममाश्रित्य दुष्पूरं दम्भमानमदान्विता मोहाद्गृहीत सद्ग्राहान् प्रवर्तन्ते शुचिव्रताः चिन्तामापरिमेयाञ्च प्रलयान्तामुपाश्रिताः कामोपभोगपरमा एतावदिति निश्चिताः आशापाशसतेर्बद्धाः कामक्रोधपरायणः ईहन्ते कामभोगार्थम् अन्नायेनार्थसञ्चयान् इदमद्य मया लब्धम् इदं प्राप्स्ये मनोरथम् इदमस्ति इदमपि मे भविष्यन्ति पुनर्धनम् असौ मया हतः शत्रुर्हनिष्ये चापरानपि ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी अढ्ढोऽभिजानवानस्मि कन्योऽस्ति सादृशो मया यक्षे दस्यामि मोदिश्च इत्तज्ञानविमोहितः अनेकचित्तविभ्रान्ता मोहजालसमावृताः प्रसक्ता कामभोगेषु पतन्ति नरकेषु च आत्मसम्भावितास्तब्धाः धनमानमदान्विताः यजन्ति नामयज्ञैस्ते दम्भेना विधिपूर्वकम् अहङ्कारं बलं दर्पं कामं क्रोधञ्च संस्थिताः मामात्मपरदेहेषु प्रदिशन्तो भसूचका तानहङ्दिशतक्रूरान् संघरेषु नराधमान् क्षिप्रं मजस्रमशुभान् आसुरीष्येव जोनिषु आसुरीं जनिमापन्ना मूढा जन्मनि जन्मनि मामा प्राप्यैव कौन्तेय ततो जान्तधमाङ्गतिं त्रिविधं नरकश्चेदं दारं नाशनमात्मनः कामक्रोधस्तथा लोभस्तस्मादेतत्रयन्तजेत् एतैर्विमुक्तकौन्तेय तमद्दारस्त्रिभिर्नरः आचरत्यात्मनः श्रेयस्ततो जाति पराङ्गतिम् जशास्त्रविधिमुत्सृज्य वर्तते कामचारतः न स सिद्धिमवाप्नोति न सुखं न पराङ्गतिम् तस्मात् शास्त्रं प्रमानन्ते कार्याकार्यव्यवस्थितो ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि इति श्रीमहाभारते शतसाहस्रं संहितायां वैयासिक्खां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत् सुब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पदविभागयोगनामसरसोऽध्यायः।